इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य पश्चिमबंगं प्रति एष्यति। तस्य यात्रावधौ प्रधानमन्त्री नादियामण्डलस्य रानाघाट इत्यत्र प्रायः 200-300 कोटि रूप्यकाणां राष्ट्रिय राजमार्ग परियोजनायाः शिलान्यासम् उद्घाटनं च करिष्यति। श्रीमोदी अवसरेऽस्मिन् सभां च सम्बोधयिष्यति। एताः परियोजनाः कोलकाता सिलीगुड़ी इत्येतयोः मध्ये महत्वपूर्णं सम्बन्धसूत्रं भविष्यन्ति। पश्चिमबंगालतः प्रधानमन्त्री नरेन्द्रमोदी अद्य अपराह्णे असमराज्यं प्रति गमिष्यति। एषा यात्रा द्विदिवसात्मिका वर्तते। भ्रमणावधौ श्रीमोदी राज्ये प्रायः 600-500 कोटि रूप्यकाणां विकासात्मक परियोजनानाम् उद्घाटनं शिलान्यासं च करिष्यति। अद्य प्रथमदिवसे प्रधानमन्त्री गुवाहाटी इत्यत्र लोकप्रियो गोपीनाथ बोलदोलोय अन्ताराष्ट्रिय विमानस्थानके अत्याधुनिक वेणु आर्किड टर्मिनल भवनस्य उद्घाटनं च करिष्यति। टर्मिनल वेणु आर्किड इति असम राज्यस्य जैव विविधतां सांस्कृतिक परम्परां च प्रतिबिम्बयति। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् योगेन विश्वस्मिन् हि विश्वे स्वास्थ्यस्य सन्तुलनस्य मार्गः प्रदर्शितः। नवदिल्ल्यां विश्वस्वास्थ्यसङ्घस्य पारम्परिकचिकित्साविषयकवैश्विकसम्मेलने सम्बोधयन् श्रीमोदी अवोचत् यत् योगस्य प्रभावः सर्वत्र एव प्रायः सर्वैः अवलोकितः।
पारंपरिक चिकित्सा प्रणाली का एक अहम हिस्सा योग भी है। योग ने पूरी दुनिया को स्वास्थ्य संतुलन और सामंजस्य का रास्ता दिखाया है। बीते वर्षों में हमने योग को दुनिया के कोने कोने तक पहुंचते देखा है। मैं योग के प्रचार और विकास में महत्वपूर्ण योगदान देने वाले हर व्यक्ति की सराहना करता हूं।
अवसरेस्मिन् प्रधानमन्त्री विश्व स्वास्थ्य संघटनस्य महानिदेशकेन डॉ टेड्रोस एधनॉम घेब्रेयेसस इत्यनेन सह दिल्ली नगरे नूतन विश्व स्वास्थ्य संघटनस्य दक्षिण पूर्व एशिया क्षेत्रीय कार्यालय परिसरस्य उद्घाटनं च कृतवान्। संसदः उभय सदनयोः शीतकालीन सत्रस्य अनिर्दिष्ट कालाय स्थगनमाजायत्। लोकसभायाः अध्यक्षः ओम बिरला वर्यः स्वस्य समापनाद्बोधने अवदत् यत् सभायाः उत्पादकता प्रायः 11%+ आसीत्। सः अवोचत् यत् सभायाः आहत्य 15 उपवेशनानि अभवन्। सभायाः सुगमतया सञ्चालने सहकाराय च सः सर्वेभ्यः सदस्येभ्यः धन्यवादान् अयच्छत्। राज्यसभायाः सभापतिः सीपी राधाकृष्णन वर्यः स्वस्य समापनोद्बोधने अवदत् यत् सभायां प्रायः 92 होराः कार्यम् अभवन्। 21%+ उत्पादकतम् अभवत् इति सः अवोचत् यत् सत्रे 61 स्वायत्तसदस्यानां विधेयकाः प्रस्तुताः सन्ति। सः अवदत् यत् ऐतिहासिक लोकतान्त्रिक महत्वस्य विषयेषु उच्च गुणवत्तायुक्तैः वादविवादैः चर्चया च सत्रमिदं चिह्नमिति आसीत्। भारतीय ऋतुविज्ञान विभागेन अद्य उत्तरप्रदेशे दिल्ल्यां छत्तीसगढ़े हिमाचलप्रदेशे च अति निहारस्य स्थितिं प्रति नारंगवर्णीया संचेतना प्रख्यापिता। विभागेन उक्तं यत् बिहार पंजाब हरियाणा चंडीगढ़ उत्तराखंड हिमाचल प्रदेश झारखंड राज्येषु च एतादृशी स्थितिः एव भविष्यति। अंडर 19 एशिया कप क्रिकेट क्रीडायां भारतं श्रीलंका देशं दुबई नगरे प्रथम उपांत्य स्पर्धायां 8 स्तोभैः पराजयत् इति वार्ताः।